अथ हठयोप्रदीपिकायां तृतीयोपदेशः स शैलवनधात्रीणां यथा धारो अहिनायकः सर्वेषां योगतन्त्राणां तथा धारो हि कुण्डली सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपेच प्राणस्य शून्यपदवी तथा राजपथायते तथा चित्तं निरालम्बं तदा कालस्य वञ्चनम् सुषुम्ना शून्यपदवी ब्रह्मरन्ध्रं महापथः श्मशानं शाम्भवी मध्य मार्गश्चेत्येकवाचकाः तस्मात् सर्वप्रयत्नेन प्रबोधयितुम् ईश्वरीं ब्रह्मद्वारमुखे सूक्तां मुद्राभ्यासं समाचरेत् अथ मुद्राभेदाः महामुद्रा महाबन्धो महावेधश्च खेचरी उड्यानं मूलबन्धश्च बन्धो जालन्धराभिदः कर्णी विपरीताख्या वज्रोली शक्ति चालनम् इदं हि मुद्रा दशकं जरा मरण नाशनम् आदिनाथोदितं दिव्यं ऐश्वर्यं प्रदायकम् वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा अथ महामुद्रा पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् प्रसारितं पदं कृत्वा कराभ्यां धारये दृढम् कण्ठे बन्धं समारोप्य धारयेत् वायुमूर्ध्वतः यथा दण्डहता सर्पो दण्डहकारः प्रजायते रिज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् तदा सा मरणावस्था जायते द्विपुटाश्रया तथा शनैः शनैरेव रेचयेन्नैव वेगतः महामुद्रां च ते नैव वदन्ति विबुधोत्तमः इयं खलु महामुद्रा सहा सिद्धैः प्रदर्शिता महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः महामुद्रां च ते नैव वदन्ति विबुधोत्तमाः चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् यावत्तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् न हि पथ्यमपथ्यं वा रसाः सर्वे अपि नीरसाः अपि भुक्तं विषं घोरं पीयुषम् अपि जीर्यते क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः तस्य दोषाः क्षयं यान्ति महामुद्रां तु युवभ्यसे कथिते महामुद्रा महासिद्धिकरा नृणां गोपनीया प्रयत्नेन न देया यस्य कस्यचित् अथ महाबन्धः पार्ष्णिं वामस्य पारस्य योनिस्थाने नियोजयेत् वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् निष्पीड्यवायुमा कुञ्च्य मनो मध्ये नियोजयेत्। धारयित्वा यथा शक्ति रेचयेत् अनिलं शनैः। सव्यांगे तु समाभ्यस्य दक्षांगे पुनरभ्यसेत्। मतमत्र तु केषाञ्चित् कंठबंधम विवर्जयेत्। राजदंतस्त जीवाया बंधः षष्ठो भवेदिति। अयं तु सर्वनाडीनां ऊर्ध्वं गति निरोधकः। अयं खलु महाबंधो महासिद्धि प्रदायकः। कालपाश महाबंध विमोचन विचक्षणः। त्रिवेणी संगमं धत्ते केदारं प्रापयेन् मनः। रूपलावण्य संपन्ना यथा स्त्री पुरुषं विना। महामुद्रा महाबंधौ निष्फलौ वेद वर्जितौ। अथ महावेदः। महाबंध स्थितो योगी कृत्वा पूरकं मेकधीः। वायुनां गतिमावृत्य निभृतं कंठ मुद्रया। समहस्तयुगो भूमौ स्विचौ संताडयेच्छनैः। पुटद्वयं अतिक्रम्य वायुः स्फुरति मध्यगः। सोम सूर्यान्निसंबद्धो जायते चामृताय वै। मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत्। महावेदो अयम् अभ्यासान् महासिद्धि प्रदायकः। वलीपलित्वे पग्नः सेव्यते साधकोत्तमैः। एतत्त्रयं महागुह्यं चरा मृत्यु विनाशनम्। वहनि वृद्धकरं चैव याणिमादिगुणप्रदम्। अष्टधा क्रियते चैव यामे यामे दिने दिने। पुण्यसंभार संधायि पापौघभिधुरं सदा। सम्यक् शिक्षावतामेवं स्वल्पं प्रथम साधनम्। अथ खिचरी। कपाल कुहरे जिवा प्रविष्टां विपरीत गा। भ्रुवोरंतर्गता दृष्टिर् मुद्रा भवति खेचरी। छेदन चालन दो है कलां क्रमेण वर्धये तावत्। सायावत् भ्रूमध्यम स्प्रशति तदा खेचरी सिद्धि। इस्नु ही पत्र निभं शस्त्रं सुतीक्ष्णं स्निग्ध निर्मलं। समादाय ततस्तेन रोम मात्रं समुच्चिने। तथा सैंधव पथाभ्यां चूर्णिताभ्यां प्रकर्षयेत्। पुनः सप्त दिने प्राप्ते रोम मात्रं समुच्चिने। एवं क्रमेण षड् मासं नित्यं युक्तः समाचरेत्। षड् मासाद् रसना मूल शिलाबन्धः प्रणश्यति। कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्। सा भवेत् केचरी मुद्रा व्योमचक्रं तदुच्यते। रसनामूर्धगां कृत्वा क्षणाधमपि तिष्ठति। विश्विमूर्च्यते योगी व्याधि मृत्युजरादिभिः। न रोगो मरणं तंद्रा न निद्रा न क्षुधा तृषा। न च मूर्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम्। पीड्यते न स रोगेण लिप्यते न च कर्मणा। बाध्यते न सकालेन यो मुद्रां वेत्ति खेचरीम् चित्तं चरति खेयस्माज्जिह्वा चरति खेगता तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता खेचर्या मुद्रितं येन विविरं लम्बकोर्ध्वतः न तस्य चरते बिन्दुः कामिन्याश्लेषितस्य च ऊर्ध्वजिह्वास्तरो भूत्वा सोमपानं करोति यः मासार्धेन न सन्देहो मृत्युं जयति योगवेत् नित्यं सोमकलापूर्णं शरीरे यस्य योगिनः तत्क्षणेनापि दष्टस्य विषं तस्य न सर्पति इन्धनानि यथा वह्निस्तैलवर्ती च दीपकः तथा सोमकलापूर्णं देही देहं न मुञ्चति गोमांसं भक्षयेन्नित्यं पिबेतमर्वारुणीम् कुलीनं तमहं मन्ये इतरे कुलघातकाः गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनी गोमांसभक्षणं तत्तु महापातकनाशनम् जिह्वा प्रवेशसम्भूत वह्निनोत्पादितः खलु चन्द्रात्स्रवति यः सारः सा स्यादमर्वारुणी चुम्बन्ति यदि लम्बिकाग्रम् अनिशं जिह्वारसंस्पन्दिनी साक्षाराकटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा व्याधिनां हरणं जरान्तकरणं शास्त्रागमोदीरीणम् तस्य स्यादमरत्वम् अष्टगुणितं सिद्धाङ्गनाकर्षणम् यत्प्रालेयं प्रहित सुशिरं मेरुमूर्धान्तरस्थम् तस्मिस्तत्त्वं प्रवदति सुधीस्तन्मुखं निम्नगानाम् चन्द्रात् सारः श्रवति वपुषस्तेन मृत्युर्नराणाम् तद्बध्नीयात् सुकरणम् मथो नान्यथा कार्यसिद्धिः सुशिरं ज्ञानजनकं पञ्चस्रोतः समन्वितं तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने एकं सृष्टिमयं बीजम् एका मुद्रा च खेचरी एको देवो निरालम्ब एकाधस्था मनोन्मनि अथोड्यान् बन्धः बन्धो येन शिशुम्नायां प्राणस्तडुड्डीयते तथा तस्मादुड्डीयानाख्योऽयं योगीभिः समुदाहितः उड्डीनं कुरुते यस्मात् अविश्रान्तं महाखगः उड्डीयानं तदैव स्यात् तत्र बन्धोऽभिधीयते उदरे पश्च्यं तानं नाभेरूर्ध्वं च कारयेत् उड्डीयानो ह्यसो बन्धो मृत्युमातङ्गकेसरी उड्डीयानं तु सहजं गुरुणा कथितं सदा अभ्यसेत् सततं यस्तु वृद्धोऽपि तरुणायते नाभेरूर्ध्वं मधश्चापि तानं कुर्यात् प्रत्यक्प्रयत्नतः षण्मासभ्यसेन्मृत्युं जयत्येव न संशयः सर्वेषामेव बन्धनाम् उत्तमो ह्युड्डीयानकः उड्डियाने दृढ़े बंधे मुक्ति ही स्वभाव की भवे। अथ मूल बंध पार्ष्णि भागे संपीड्य योनिं मा कुञ्चयेद् गुदम् अपानं मूर्ध्वं मा कृष्य मूलबन्धो अभिधीयते। अधो गतिम् अपानं वा ऊर्ध्वगम् कुरुते बलात् आकुञ्चनेन तं प्राहुर् मूलबन्धं हि योगिनः। गुदं पार्ष्ण्यातु संपीड्य वायुं माकुञ्चयेत् बलात् वारं वारं यथा चोर्ध्वं समायाति समीरिणः। प्राणापानौ नादबिन्दु मूलबन्धेन चैकतां गत्वा योगस्य संसिद्धिं गच्छतो नात्र संशयः। अपान प्राणयोरैक्यं क्षयो मूत्र पुरीषयोः युवा भवति वृद्धोऽपि सततं मूलबन्धनात्। अपाने ऊर्ध्वगे जाते प्रयाते वहनी मण्डलं तदा नलशिखा दीर्घा जायते वायुनाहता। ततो यातो वहन्यपानौ प्राणम् उष्णस्वरूपकम् तेनात्यन्त प्रदीपतस्तु ज्वलनो देहजस्तथा तेन कुण्डलिनी सुप्ता संतप्ता सम्प्रबुध्यते दण्डहता भुजङ्गीव निःस्वस्य ऋजुतां व्रजेत्। बिलं प्रविष्टेव ततो ब्रह्मनाड्यात्तरं व्रजेत् तस्मान्नित्यं मूलबन्धः कर्तव्यो योगीभिः सदा। अथ जालन्धर्बन्धः कण्ठमाकुञ्च हृदये स्थापयेच्चिबुकं दृढं बन्धो जालन्धर जरा मृत्यु विनाशकः। बध्नाति हि शिरा जालम् अधोगामी नभो जलम् ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः। जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे न पीयुषीं पतति अग्नौ न च वायुः प्रकुप्यति। कण्ठसङ्कोचनेनैव द्वे नाड्यौ स्तम्भये दृढम् मध्यचक्रमिदं ज्ञेयं षोडशाधारबन्धनम्। मूलस्थानं समाकुच्य उड्डियानं तु कारयेत् इडां चापिङ्गलां बद्ध्वा वाहयेत् पश्चिमे पथि। अनेनैव विधानेन प्रयाति पवनो लयं ततो न जायते मृत्युर्जरारोगादिकं तथा। बन्धुत्रयमिदं श्रेष्ठं महासिद्धैश्च सेवितं सर्वेषां हठतन्त्राणां साधनं योगिनो विदुः। यत्किञ्चित् स्रवते चन्द्रात् अमृतं दिव्यरूपिणः तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः। तत्रास्तिकरणं दिव्यं सूर्यस्य मुखवञ्चनम् गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थक्रोटिभिः। अथ विपरीत करणी ऊर्ध्वं नाभेरधस्तालोर्ऊर्ध्वं भानुरधाशशी। करणी विपरीताख्या गुरुवाक्येन लभ्यते। नित्यमभ्यासयुक्तस्य जठराग्नि विवर्धिनी आहारो बहुलस्तस्य संपाद्यः साधकस्य च अल्पाहारो यदि भवेत् अग्निर्दहति तत्क्षणात् अधःशिरश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने क्षणाञ्च किञ्चिदधिकम् अभ्यस्येच्च दिने दिने वलितं पलितं चैव षण्माशोर्ध्वं न दृश्यते यां मात्रं तु यो नित्यम् अभ्यसेत् सा तु कालजित् अथ वज्रौली स्वेच्छया वर्तमानोऽपि योगैक्तैर्नियमैर्विना वज्रौली यो विजानाति सा योगी सिद्धिभाजनम् तत्र वस्तुद्वयं वक्षे दुर्लभं यस्य कस्यचित् क्षीरं चैकं द्वितीयं तु नारी चावसवर्तिनी मेहनेन शनैः सम्यक् ऊर्ध्वा कुञ्चन् समभ्यसेत् पुरुषोऽप्यथवा नारी वज्रौली सिद्धिम् आप्नुयात् यत्नताशस्तनालेन भूत्कारं वज्रकन्दरे शनैः शनैः प्रकुर्वीत् वायुसञ्चारकारणात् नारीभगे पतद्बिन्दुम् अभ्यासेनूर्ध्वमाहरेत् चलितं च निजं बिन्दुम् ऊर्ध्वमाकृष्य रक्षयेत् एवं संरक्षयेत् बिन्दुं मृत्युं जयति योगवेत् मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् सुगन्धो योगिनो देहे जायते बिन्दुधारणात् यावद्बिन्दुस्थरो देहे तावत् काल्भयं कुतः चित्तायतं नृणां शुक्रं शुक्रायतं च जीवितं तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः अथ सहजौली सहजौली चाम्रोलेर्वज्रौल्याभेदेकतः जलेषु भस्म निक्षिप्य दग्धभूमये सम्भवम् वज्रौली मैथुना दूर्ध्वम् स्त्रीपुंसो स्वाङ्गलेपनम् आसीनयो सुखेनैव मुक्तव्यापयोर्क्षणात् सहजौलीरियं प्रोक्ता श्रद्धेया योगीभिः सदा अयं शुभकारो योगो भोगयुक्तोऽपि मुक्तिदः अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनां निर्मत्सरणां सिद्धेत न तु मत्सरशालिनाम् अथामरुली पित्तोल्लवणात् प्रथमाम्बुधारां विहाय निस्सार्यतायात्यधारा निषीव्यते शीतलमद्यधारा कापालिके खण्डमते अम्रोली अमरीं यां पिबे नित्यं नस्यं कुर्वन् दिने दिने वज्रौलिमभ्यसे सम्यक् अमरूलीति कथ्यते अभ्यासान्निश्रुता चान्द्रीं विभूत्या सह मिश्रयेत् धारयेदुत्तमाङ्गेषु दिव्यदृष्टिः प्रजायते अथ शक्तिचालनम् कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तेरीश्वरी कुण्डल्यरुदन्ति चैते शब्दाः पर्यायवाचकः उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् कुण्डल्या यथा योगी मोक्षद्वारं विभेदयेत् येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयं मुखेनाच्छाद्यतद्वारं प्रसुप्ता परमेश्वरी कन्दूर्ध्वं कुण्डली शक्तिः सुप्ता मोक्षाय योगिनां बन्धनाय च मूढानां यस्तां वेत्ति स योगवेत् कुण्डली कुटिलाकारा सर्ववत् परिकीर्तिता सा शक्तिश्चालिता येन सा मुक्तो नात्र संशयः गंगा यमुनयोर्मध्ये बालरण्डा तपस्विनी बलत्कारेण ग्रहणीयात् तद्विष्णोः परमं पदम् इडा भगवती गंगा पिंगला यमुना नदी इडा पिंगलयोर्मध्ये बालरण्डा च कुण्डली पुञ्चे प्रग्रहे भुजगीं सुप्तामुद्बोधयेच्छताम् निद्रां विहाय सा शक्तिरूर्ध्वम् उत्तिष्ठते हठात् अवस्थिता चैव फण्वती सा प्रातश्च सायं प्रहरार्धमात्रम् प्रपूर्य सूर्यात् परिधानयुक्त्या प्रगृह्य नित्यं परिचालनीया ऊर्ध्वं वितस्ति मात्रं तु विस्तारं चतुरङ्गुलं मृदुलं धवलं प्रोक्तं वेष्टिताम्बरं लक्षणम् सति वज्रासने पादौ कराभ्यां धारये दृढं गुल्फदेश समीपे च कन्दं तत्र प्रपीडयेत् वज्रासने स्थितो योगी चालयित्वा च कुण्डलीं कुर्यादनन्तरं वस्त्रां कुण्डलीं माशु बोधयेत् भानुराकुञ्चनं कुर्यात् कुण्डलीं चालयेत्ततः मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ ऊर्ध्वमाकृष्यते किञ्चित् सुषुम्नायां समुद्वता तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं ध्रुवम् जहाति तस्मात् प्राणो वयं सुषुम्नां व्रजति स्वतः तस्मात् संचालये नित्यं सुखं सुप्तां मरुन्धितिं तस्याः संचालने नैव योगी रोगैः प्रमुच्यते येन संचालिता शक्तिः सा योगी सिद्धिभाजनम् किमत्र बहुनोक्तेन कालं जयति लीलया ब्रह्मचरतस्यैव नित्यं हितमिताशिनः मण्डलाद्रश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः एवमभ्यसतो नित्यं यमिनो यमभिः कुतः द्वासप्ततिसहस्राणां नाडीनां मलशोधने कुतः प्रक्षालनोपायः कुण्डल्यभ्यासनादृते इयं तु मध्यमा नाडी दृढोऽभ्यासेन योगिनां आसन प्राण संयमा मुद्रा भी सरला भवे। अभ्यासे तु विनेद्राणाम् मनो धृत्वा समाधिनाम् रुद्राणि वा यदा मुद्रा भद्राम् सिद्धिम् प्रयच्छति। राजयोगम् विना पृथ्वी राजयोगम् विना निशा राजयोगम् विना मुद्रा विचित्रापि न शोभते। मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् इतरत्र न कर्तव्या मनोवृत्तेर्मनीषिणा। इति मुद्रादश प्रोक्ता आदिनाथेन शम्भुना एकैका ताशु यामिनीनां महासिद्धि प्रदायिनी। उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् साईव श्री गुरुः स्वामी साक्षादीश्वर एव सः। तस्य वाक्योपरि भूत्वा मुद्राभ्यासे समाहितः अण्मादिगुणैः सार्धं लभते कालवञ्चनम्। इति हठयोग प्रदीपिकायां स्वात्मा रामस्य महामुनेः तृतीयोपदेशः।